त्रयोदशोऽध्यायः ध्यानम् बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनां पाशाङ्कुशवराभीतिं धारयन्तीं शिवां भजे। ऋषिरुवाच एतत्ते कथितं भूप देवी माहात्म्यमुत्तमम् एवं प्रभावा सा देवी ययेदं धार्यते जगत् विद्या तथैव क्रियते भगवद्विष्णुमायया तया त्वमेष वैश्यश्च तथैवान्ये विवेकिनः मोह्यन्ते मोहिताश्चैव मोहमेष्यन्ति चापरे तामुपैहि महाराज शरणं परमेश्वरीम् आराधिता सैव नृणां भोगस्वर्गापवर्गदा। मार्कण्डेय उवाच इति तस्य वचः श्रुत्वा सुरथः स नराधिपः प्रणिपत्य महाभागं तमृषिं संशितव्रतं निर्विन्नोति ममत्वेन राज्यापहरणेन च जगामसद्यस्तपसे स च वैश्यो महामुने सन्दर्शनार्थमम्बायाः नदीपुलिनमास्थितः स च वैश्यस्तपस्तेऽपि देवी सूक्तं परं जपन् तौ तस्मिन् पुलिने देव्याः कृत्वा मूर्तिं महीमयीम् अर्हणां चक्रतुस्तस्याः पुष्पधूपाग्नितर्पणैः निराहारौ यताहारौ तन्मनस्कौ समाहितौ ददतुस्तौ बलिं चैव निजगात्रासृगुक्षितम् एवं समाराधयतोः त्रिभिर्वर्षैर्यतात्मनोः परितुष्टा जगद्धात्री प्रत्यक्षं प्राह चण्डिका। देव्युवाच यत्प्रार्थ्यते त्वया भूप त्वया च कुलनन्दन मत्तस्तत्प्राप्यतां सर्वं परितुष्टा ददामि वाम्। मार्कण्डेय उवाच ततो वव्रे नृपो राज्यम् अविभ्रंशन्यजन्मनि अत्रापि च निजं राज्यं हतशत्रुबलं बलात् सोऽपि वैश्यस्ततो ज्ञानं वव्रे निर्विन्नमानसः ममेत्यहमिति प्राज्ञः सङ्गविच्युतिकारकम्। देव्युवाच स्वल्पैरहोभिर्नृपते स्वं राज्यं प्राप्स्यते भवान् हत्वा रिपूनस्खलितं तव तत्र भविष्यति मृतश्च भूयः सम्प्राप्य जन्मदेवाद्विवस्वतः सावर्णिको नाम मनूर् भवान् भुवि भविष्यति वैश्यवर्यत्वया यश्च वरोऽस्मत्तोऽभिवाञ्छितः तं प्रयच्छामि संसिद्ध्यै तव ज्ञानं भविष्यति। मार्कण्डेय उवाच इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता एवं देव्या वरं लब्ध्वा सुरथक्षत्रियर्षभः सूर्याजन्म समासाद्य सावर्णिर्भविता मनुः इति दत्त्वा तयोर्देवी यथाभिलषितं वरम् బభూవాందర్హితా సద్యో భక్త్యా తాభ్యామభిష్టుతా. ఏవం దేవ్యా వరం లబ్ధ్వా సురధక్షత్రియశ్శభః సూర్యాజన్మ సమాసాద్య సావర్ణిర్భవితా మనుః. శ్రీమార్కండేయ పురాణే సావర్ణిగే మన్వంతరే దేవీ మాహాత్మ్యే త్రయోదశః.